इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। बांग्लादेशस्य अपदस्थः प्रधानमन्त्री शेख हसीना तथा पूर्व गृहमन्त्री असदुज्जमान खान कमालः च अद्य देशस्य अन्ताराष्ट्रिय आपराधिक न्यायालयेन मानवता विरुद्धम् अपराधानां कृते मृत्युदण्डः श्रावितः। सऊदी अरबदेशे मक्का नगरात् मदीना नगरं गच्छन्ति बसयान दुर्घटनायां द्विचत्वारिंशत् भारतीय तीर्थयात्रिणः मृत्युमुपगताः। श्रीमोदी अवदत् यत् तस्य संवेदनाः मृत्युं गतानां परिवाराणां प्रियजनानां कृते सन्ति। सेनाप्रमुखः उपेन्द्र द्विवेदी उक्तवान् यत् सिन्दूराभियानं केवलम् एकं लघुचलचित्ररूपेण आसीत् यः अष्टाशीति होरासु समाप्तं जातम्। अपि च अद्य दिल्ल्याः एकेन न्यायालयेन आमिर रशीद अलीं लालकिलायां सञ्जाते प्रकरणे 10 दिवसीये कारावासदण्डाय प्रेषितः। बांग्लादेशस्य अपदस्थः प्रधानमन्त्री शेख हसीना तथा पूर्व गृहमन्त्री असदुज्जमान खान कमालः च अद्य देशस्य अन्ताराष्ट्रिय आपराधिक न्यायालयेन मानवता विरुद्धम् अपराधानां कृते मृत्युदण्डं श्रावितः। ध्यातव्यमस्ति यत् न्यायाधिकरणेन आरक्षि महानिरीक्षकस्य चौधरी अब्दुल्लाह अल मामूनम् अस्मिन् प्रकरणे 5 वर्षीय कारावासदण्डं श्रावितः आसीत्। सऊदी अरबदेशे मक्का नगरात् मदीना नगरं गच्छन्ति बसयान दुर्घटनायां द्विचत्वारिंशत् भारतीय तीर्थयात्रिणः मृत्युमुपगताः। भारतीय समयानुसारं रात्रौ 1:30 मुफरी हाट नामके स्थाने एषा घटना सञ्जाता। जेद्दाहस्य भारतस्य वाणिज्य दूतावासेन अद्य सऊदी अरबदेशस्य मदीना नगरस्य समीपे दुखद बसयानस्य दुर्घटनायाः अनन्तरं सहायता संख्याः प्रख्यापिताः। एकस्मिन् सामाजिक अन्तर्जाली सन्देशे वाणिज्य दूतावासेन सूचितं यत् परिसरे अहर्निशं कार्यं भवति स्म, नियन्त्रणकक्षः स्थापितः अपि अस्ति। सममेव सहायता संख्या 0021 2 4 4 0 0 0 3 0 1 2 6 1 4 0 9 3 0 1 2 6 6 1 4 2 7 7 0 5 5 6 1 2 3 0 1 इति वर्तते। प्रधानमन्त्री नरेन्द्रमोदी सऊदी अरबदेशे सञ्जातायां दुर्घटनायां भारतीय नागरिकाणां समेत्य अन्येषां च मृत्युमालक्ष्य दुःखं प्रकटितवान्। श्रीमोदी अन्तर्जालीय सन्देशमाध्यमेन अवदत् यत् तस्य संवेदनाः मृत्युं गतानां परिवाराणां प्रियजनानां कृते सन्ति। सः आहतानां शीघ्रं स्वस्थतां प्राप्तुं कामयते। प्रधानमन्त्रिणा उक्तं यत् रियादस्थ दूतावासस्य जेद्दाह नगरस्थ वाणिज्य दूतावासस्य च कृते सर्वाः सम्भाव्य सहायताः प्रदास्यन्ति। सः अवदत् यत् भारतीयाधिकारिणः सऊदी अरब अधिकारिभिः सह अपि सम्पर्कं कुर्वन्ति। उपराष्ट्रपतिः सीपी राधाकृष्णन् मदीना मार्ग दुर्घटनायाः विषये दुःखं प्रकटितवान्। एकस्मिन् सामाजिक अन्तर्जालीय सन्देशे सः अवदत् यत् अस्मिन् प्रतिकूल समये प्रभावित परिवारे सह तस्य संवेदनाः सन्ति। उपराष्ट्रपतिः शोकाकुल परिवारेभ्यः शोक संवेदनाम् अभिव्यक्तवान्। सममेव व्रणितानां कृते शीघ्रं स्वस्थं भवितुं कामना अपि विहिता अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सेनाप्रमुखः उपेन्द्र द्विवेदी उक्तवान् यत् सिन्दूराभियानं केवलम् एकं लघुचलचित्ररूपेण आसीत् यः 88 होरासु समाप्तं जातम्। सः अवदत् यत् भविष्ये कस्यापि स्थितिः कृते भारतं सज्जीकृतम् अस्ति। श्रीद्विवेदी उक्तवान् यत् यदि पाकिस्तानः कदापि किमपि दुष्कृतं करोति तर्हि भारतीय सशस्त्रसेना समीपस्थं देशं भारतेन सह दायित्वपूर्वकं व्यवहारं कर्तुं शिक्षयिष्यति। सेनाप्रमुखः अवदत् यत् आतंकवादः भारतस्य कृते चिन्ताजनकः विषयः अस्ति यतोहि भारतं सर्वदा प्रगतेः विकासस्य च विषये आलपति। नवदिल्ल्यां रक्षासंवादस्य समारोहं सम्बोधयन् श्रीद्विवेदी प्रोक्तवान् यत् अस्मिन् वर्षे आतंकवादस्य गतिविधिषु अल्पता दृग्गोचरीभूता।
आतंकवाद भी बहुत ज्यादा गिरावट आई, यहां तक कि अभी इस बार तकरीबन में 31 टेररिस्ट मारे हैं, जिसमें कि तकरीबन 61% जो पाकिस्तान टेररिस्ट हैं। सारे मापदंड आप देखें तो जम्मू कश्मीर में बदलाव आ रहा है।
अद्य दिल्ल्याः एकेन न्यायालयेन आमिर रशीद अलीम लालकिलायां संजाते प्रकरणे 10 दिवसीय कारावास दंडाय प्रेषितः। अली काश्मीरस्य निवासी उमर मुहम्मद नबी इत्यनेन सह षड्यंत्रं कृतवान् इति आरोपः अस्ति। सः सत्र न्यायाधीशस्य समक्षं प्रस्तुतः आसीत्। ह्यः एनआईए इति संस्थया अलीं निगडितः, यस्य नामधेयं प्रयुक्तं विस्फोटके चतुश्चक्रिकायानं पञ्जीकृतम् आसीत्। सः दिल्लीनगरे एकस्य अन्वेषणाभियानस्य कार्यक्रमस्य समये निगडितः आसीत्। ध्यास्पदं वर्तते यत् अन्वेषणं सजवं प्रचलति। एनआईए इति संस्था दिल्ली आरक्षिबल, जम्मू कश्मीर आरक्षिबल, हरियाणा आरक्षिबल, उत्तरप्रदेश आरक्षिबल चेत्येतेषाम् अनेकानां केन्द्रीय संस्थानां च सह समन्वयं कुर्वदस्ति, अपि च विभिन्नेषु स्थानेषु स्वस्य अन्वेषणं निरन्तरं कुर्वदस्ति। भारतीय ऋतुविज्ञान विभागेन अद्य मध्यमहाराष्ट्रः, मध्यप्रदेशः, झारखण्डः, राजस्थानः, विदर्भः चेत्यादिषु राज्येषु शीतलहर्याः स्थितेः पूर्वमेव भविष्यति एव इति अनुमानं प्रकटितम्। अद्य तमिलनाडु, पुद्दुचेरी, कराईकल नगराणां पृथक् पृथक् स्थानेषु तीव्रवृष्टेः संभावना प्रकटिता अस्ति। आगामि 2-3 दिवसेषु आन्ध्रप्रदेशे, केरलमाहे चेत्यादिषु राज्येषु एतादृशी एव स्थिति भवितुं शक्नोति। ऋतुविज्ञान विभागेन अण्डमान निकोबार द्वीपसमूहे विद्युत् प्रवृत्त वायुभिः सह अल्पवृष्टेः संभावना प्रकटिता अस्ति। अद्य दिल्ल्याः एकेन न्यायालयेन आमिर रशीद अलीम लालकिलायां संजाते प्रकरणे 10 दिवसीय कारावासाय दण्डाय प्रेषितः। अली काश्मीरस्य निवासी उमर मुहम्मद नबी इत्यनेन सह षड्यंत्रं कृतवान् इति आरोपः अस्ति। सः सत्र न्यायाधीशस्य समक्षं प्रस्तुतः आसीत्। यः एनआईए संस्थया अलीम निगडितः, यस्य नामधेयं प्रयुक्तं विस्फोटके चतुश्चक्रिकायानं पञ्जीकृतम् आसीत्। सः दिल्लीनगरे एकस्य अन्वेषणाभियानस्य कार्यक्रमस्य समये निगडितः आसीत्। ध्यास्पदं वर्तते यत् अन्वेषणं सजवं प्रचलति। एनआईए इति संस्था दिल्ली आरक्षिबल, जम्मू कश्मीर आरक्षिबल, हरियाणा आरक्षिबल, उत्तरप्रदेश आरक्षिबल चेत्येतेषाम् अनेकानां केन्द्रीय संस्थानां च सह समन्वयं कुर्वद् अस्ति, अपि च विभिन्नेषु स्थानेषु स्वस्य अन्वेषणं निरन्तरं कुर्वद् अस्ति। मुख्यवार्ताः पुनरेकवारम्। बांग्लादेशस्य अपदस्थः प्रधानमन्त्री शेख हसीना तथा पूर्वगृहमन्त्री असदुज्जमान खान कमालः च अद्य देशस्य अन्ताराष्ट्रिय आपराधिक न्यायालयेन मानवताविरुद्धम् अपराधानां कृते मृत्युदण्डः श्रावितः। सऊदी अरब देशे मक्का नगरात् मदीना नगरं गच्छन्ति बसयान दुर्घटनायां 42 भारतीय तीर्थयात्रिणः मृत्युम् उपगताः। श्रीमोदी अवदत् यत् तस्य संवेदनाः मृत्युं गतानां परिवाराणां प्रियजनानां कृते सन्ति। सेनाप्रमुखः उपेन्द्रः द्विवेदी उक्तवान् यत् सिन्दूराभियानं केवलम् एकं लघुचलचित्ररूपेण आसीत्, यः 88 होरासु समाप्तं जातम्। अपि च अद्य दिल्ल्याः एकेन न्यायालयेन आमिर रशीद अलीम लालकिलायां संजाते प्रकरणे 10 दिवसीय कारावासदण्डाय प्रेषितः इति वार्ताः।